जपाकुसुम सङ्काशम् काशपेयम् महाद्युतिम् तमोरिं सर्वपापघ्नम् प्रणतोऽस्मि दिवाकरम् शंभोर्मुकुटभूषणम् धरणी गर्भसम्भूतम् विद्युत्कान्ति समप्रभम् कुमारं शक्तिहस्तं च मङ्गलम् देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् नीलाञ्जन समाभासं रविपुत्रं यमाग्रजं छायामार्दण्ड सम्भूतं तं नमामि शनैश्चरम्
अर्धकायं महावीर्यं चन्द्रादित्य विमर्दनम्
पलाशपुष्पसङ्काशम् तारकाग्रहमस्तकम् रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः दिवा यदि वा रात्रौ विघ्नः शान्तिर्भविष्यति नरनारी नृपाणां च भवेत् दुःस्वप्ननाशनम् ऐश्वर्यम् अतुलं तेषाम् आरोग्यं पुष्टिवर्धनम् ग्रहनक्षत्रजा यान्ति व्यासो ब्रूते न संशयः इति व्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम्।